నమస్కారం. అక్టోబర్ మాసస్య ఏకాదశ దినాంక ఏనాశ్వరేశ్వరాత్మ్యాకరణం ప్రస్తుతం తస్మై పాణినే నమః. మత్స్యకారం వరరుచిం భాష్యకారం తపం జలి పాణిని ఏకాకరణ సిద్ధాంత కౌముదీయంధిరచ్యతే. అనంతపుల్లింగ ప్రకరణే తన్ శబ్దః ధీయతే. సకారాంతః పుల్లింగః అష్టన్ శబ్దః. ఇక్కడ విశిష్టాని కార్యాన్ని ధీయంతే. ఏకం తో అష్టన ఆ విభక్తౌ ఉత్తనేన అష్టన్ ధీయతే. అష్టన్ ప్రాధాన్యమస్తి దశ్యతో ఆత్మ జ్ఞాపకేన సాధ్యతే. కథం కృత్వా జ్ఞాపకం పశ్యామశ్చేత్ అష్టాభ్య ఔష్ ఇతి ఉత్తరః. అష్టం శబ్దా పరయోః దశ్యతో స్థానే ఔష్ ఆదేశం విధీయతే. కృతాకారాదర్శన దశ్యతో ఔష్యా. కథం కృతాకారాత్ ఇది జ్ఞాయతే. పాణినినా సూత్రే నిర్దేశక్రియతే అష్టాభ్యః ఇతి. అష్టం శబ్దస్య పంచమి విభక్తౌ రూపద్వయం భవతి. అష్టభ్యః ఇది భవతి, అష్టాభ్యః ఇత్యపి భవతి. అష్టభ్యః ఇత్యేవ వక్తుం శక్యం. తత్రైవ మాత్రాలాభౌ వస్తుంది. తి పాణిన దీర్ఘ ప్రయోగ క్రియతే అష్టాభ్యోపయుక్త వీథ ఉపయుక్త ఆకారీ ఎకారాదృశాశ్వశబ్దా తయో యశతో ఔష్ ఆదేశాపయతు పాణిని. తస్మాత్ యూత్రార్థే అష్టన ఆత్మ ఫలాదౌ విభక్తౌ ఇది ఉచ్యతే. తథాపి జస్యతోషు అపి ఆత్మ క్రియతే. ఆస్తే కృతే ఔషాదేశే వృద్ధౌ అష్టౌ అష్టౌ ఇది జస్యతోః రూపం. తతః హితాదిషు ఫలాదిషు ఆత్మ భవతి. అష్టాదిశే అష్టాభ్యః అష్టాభ్యః. ఆమిపరే సత్యతృభ్యశ్చేతి నుడాగమః. నుడాగమే కృతే ఆత్మం అష్టానాం ఇది రూపం. అష్టాది ఇది సర్వాణి రూపాన్ని సాధ్యంతే. ఏతత్ ఆత్మం వైకల్పికం ఇది అపర విశేష. కథం ఆత్మస్య వికల్పత్వం సాధ్యతే. పునః జ్ఞాపకేన కీదృశం జ్ఞాపకం ఇది చేత అష్టమో దీర్ఘాట్ ఇది సూత్రేణ దీర్ఘాంతాద్ అష్టమస్వరస్య అకర్మణా విభక్తే ఉదాత్తస్వరత్వం విధీయతే. యది అష్టమి శబ్దే సర్వదా ఆత్మం భవతి, సర్వదా చ దీర్ఘః భవతి, తర్హి అష్టమో దీర్ఘాత్ ఇతి దీర్ఘగ్రహణస్య ఆవశ్యకత నాస్తి. కేవలం అష్టమః ఇత్యుక్తే అష్టమి శబ్దార్థస్య అకర్మణా విభక్తే ఉదాత్తత్వం ఇది జ్ఞాయతే. దీర్ఘాత్ ఇతి విశేషణం కిమర్థం, తస్య విశేషస్య సాయకాఖ్యం కథం ఇది పశ్యామశ్చేత్ హ్రస్వస్యాపి రూపం అస్తి దీర్ఘస్యాపి అస్తి, యత్ర దీర్ఘాంతం రూపం తత్రైవ ఉదాత్తత్వం స్యాత్ ఇది పాణినేః ఉద్దేశ్యం. కథం హ్రస్వం దీర్ఘం ఇత్యుభయం రూపం భవతి ఇది చేత ఆత్మం వైకల్పికం. ఆత్మే కృతే దీర్ఘాంతం రూపం, ఆత్మే అకృతే హ్రస్వాంతం రూపం ఇది జ్ఞాయతే. తేన ఉభయమపి భవతి హ్రస్వాంతం తథా దీర్ఘాంతం. అతః దీర్ఘపక్షే అష్టౌ అష్టౌ అష్టాభిః అష్టాభ్యః అష్టాభ్యః అష్టానాం అష్టాభి రూపాణి. దీర్ఘే అకృతే ఆత్రే అకృతే తు పంచమి శబ్దవత్ అష్టాష్ట అష్టభిః అష్టభ్యః అష్టాభ్యః అష్టానాం అష్టసి ఇతి రూపాణి. Going through it verbally and submitting when I come to the action. वाक्यशब्दस्य समासे किं भवति इति प्रश्नः. प्राधान्ये यथा अष्टौ शब्दः तथैव भवति परमाष्टौ इति. परमाष्टौ ते अष्टौ च इति समासे यत्र अष्टशब्दस्य प्राधान्यमस्ति तत्र तथैव रूपाणि परमाष्टौ परमाष्टौ परमाष्टाभिः इत्यादि आत्मं भवति नुत् भवति सर्वं भवति. यदा तु गौणत्वं भवति क्रियाष्टं क्रियाः अष्टौ यस्तुतः इति गौणत्वं भवति तत्र किम् इति चेत् नुदागमः न भवति. शत्रुतुर्भ्यश्चेतनेन नुदागमः न भवति. आत्मं भवति अष्टमाविभक्तौ इत्यनेन आत्मं भवति किन्तु हलादौ विभक्तादेव भवति. यत्र विभक्तिः हलादिः तु इत्यादयः तत्रैव भवति. अजादौ विभक्तौ दृश्यतोष्ट आत्मं न भवति इति चेत् अतः अस्य प्रियाष्टन् शब्दस्य एकं रूपं राजनिषद्रवत् भवति. राजा राजानौ राजानः इति तत् क्रियाष्टा प्रियाष्टानौ क्रियाष्टानः इत्यादि आत्माभावे राजवद्रूपाणि सर्वाणि रूपाणि भवन्ति. आत्मपक्षे तु हलादौ विभक्तावेव आत्मस्य रूपाणि दृश्यन्ते. क्रियाष्टाः क्रियाष्टाभ्यां क्रियाष्टाभिः इत्यादि. क्रियाष्टन् शब्दस्य रूपविषये कश्चन प्रश्नः उद्भाव्यते दीक्षते. षट्प्रत्यये कृते अलोपो नः इत्यनेन अकारस्य लोपः भवति. श्रियाष्टि अस्ति. अत्र सुनाष्टुः इत्यनेन अकारस्य शिक्षं भवति वा न वा इति प्रश्नः. राजन् शब्दस्य प्रक्रियां यदि स्मरन्ति तत्रापि एवमेव राजन् अस्ति भवति. अल्लोपः क्रियते. अल्लोपो नः इत्यनेन अल्लोके राज नि अस्ति तिष्ठते. नकारस्य जकारेण योगे सोष्ठनाष्टुः इत्यनेन श्रुते राज्ञः इति रूपम्. तथैव अत्रापि नकारस्य तकारेण योगे सुनाष्टुः इत्यनेन श्रुत्वे नकारः श्रूयेत इति प्रश्नः. क्रियाष्टु प्रयोजयितुं क्रियाष्टमः इति नकारे श्रूयते. कथं तस्य वारणम् समाधानद्वयं दीयते ऋषितैः. इह पूर्वस्मादपि विधौ अल्लोकस्य स्थानिवद्भावात् पुनश्रुत्वम् इति प्रथमम्. स्थानिवद्भावेन अकारम् आनयामः इति पृष्टः. अकारः लुप्तः अल्लोकोनः इत्यनेन यः अकारः लुप्तः सः स्थानिवद्भावेन पुनः आनीयते. यदि आनीयते तर्हि नकारस्य तकारस्य च मध्ये व्यवधानं भवति. नकार एंड अकार वुड बी सेपरेटेड बाय द अकार एंड देयरफॉर शुत्व वुड नॉट अकर. सो इफ देयर इज स्थानिवद्भाव देयर विल नॉट बी शुत्व. इट इज प्रथम स्थानिवद्भाव कथम प्रश्न. स्थानिवद्भाव विधायकम प्रथम सूत्रम अस्ति स्थानिवद आदेश निर्दिष्ट आदेश स्थानिवद स्यात्. किंतु स्थान जलाशय विधौ न तो स्थान स्थान जलाशय विधौ. यदि स्थानी एक अल्ल भवति चेत् इफ द स्थानी कंसिस्ट ऑफ अ सिंगल अल एंड इफ द कार्य यू आर डूइंग डिपेंड्स ऑन दैट सिंगल अल तदा स्थानी अभाव न भवति इति नियमः. अत्र तु अकारः अल रूपः. तम अकारम अकारस्य तस्मिन् अलि स्थितं वर्णधर्मम् आश्रित्य श्रुत्व निवारणं कर्तुम् इष्यते. अतः स्थानीयभावः न भवति. स्थानीयरादेशानन्दितौ इत्यस्य प्रवृत्तिः नास्ति. स्थानिवद्भावविधायकं द्वितीयं सूत्रमस्ति अतः परस्मिन् पूर्वविधौ. परनिमित्तः अजादेशः स्थानिवत् स्यात् स्थानिभूतादतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये इति सूत्रार्थः. परनिमित्तः अजादेशः परनिमित्तः नाम शत्प्रत्यय निमित्तः. अत्र शत्प्रत्ययः इत्युक्ते घटन्यायां सत्यामेव अल्लोपः भवति इत्यतः शत्प्रत्ययः निमित्तम्. शत्प्रत्ययनिमित्तकः अजादेशः अजः नाम अकारस्य स्थाने लोपरूपः आदेशः स्थानिवत् स्यात् स्थानिवत् भवति. कदा भवति? पूर्वविधौ भवति इति उच्यते. पूर्वविधौ इत्यस्य कथं समासः? पूर्वविधि इति पदद्वयमस्ति. कथं समासः? पूर्वस्य विधिः पूर्वविधिः इति साधारणतया उच्यते. वेन् दत्वा वेन् अ लेटर् आर् संथिङ्ग् इस् लैक् prior to the thani is being taken for the karya, there would be sthanivadbhava. Arthati yaha sthani akaraha, tasmat purvatyena drishtasya. Arthati akarasya iri karyam करणीयं भवति तदा अजस्वरस्य पूर्वविधौ इत्यनेन स्थानेभावः भवति इति सूत्रार्थः. तत्र जनरल् सूत्रार्थः इति ऑलरेडी स्टडी. परनिमित्तः अजादेशः स्थानिवत्स्यात् स्थानीभूतादतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये. पूर्वविधौ इत्यतः पूर्वस्य विधिः इति समासस्य सः. When the vidhi to be done is for the purva. तथा सति अपि अत्र स्थानीयभावः न भवति. कुतो न भवति? अत्र तकारस्य किमपि कार्यं नास्ति. We are not trying to do anything, any modification in takara. We are trying to do a modification in nakara. And nakara is not purva to akara. Sthani, you have to imagine the sthani where you have kriyashtanna. Akara asti. अकारात् पूर्वस्य यदि कार्यं भवति तर्हि अतःपरस्य पूर्वविधौ इति प्रवर्तते. अत्र तु अकारात् परस्य मकारस्य कार्यं सूत्रं कर्तुम् इष्यते न तु पूर्वस्य. कथं तर्हि स्थानीयभावः प्रश्नः. अतः अतःपरस्मिन् पूर्वविधौ इत्यत्र यदि पूर्वस्य विधिः पूर्वविधिः इति विग्रहः क्रियते तदापि अत्र स्थानीयभावः न भवति. इष्यते स्थानीयभावः सत्त्वनिवारणार्थं स्थानीयभावः आनेतव्यः. कथम् इति चेत् अतःपरस्मिन् पूर्वविधौ इति सूत्रे पूर्वविधौ इति पदस्य द्वितीयः विग्रहः अङ्गीक्रियते. पूर्वविधि इति समासः इन् पूर्वविधि केन् बि स्प्लिट् इन् टु वे. फस्ट् वन् इस् वाट् इस् स्टडी विच् इस् षष्ठी तत्पुरुष पूर्वस्य विधिः पूर्वविधिः. द्वितीयस्तु पूर्वस्मात् विधिः पूर्वविधिः. पूर्वस्मात् इति पञ्चमी विभक्तिः पञ्चमी चतुर्षः क्रियते. पूर्वस्मात् विधिः पूर्वविधिः कोऽर्थः स्थानीभूतादतः पूर्वस्मात् परस्य विधिः. एण्ड् वी आर् ट्रैङ्ग् टु डू अ कार्य फार् अ पार्टिकल् विच् इस् फालोयिङ्ग् द पार्टिकल् विच् वास् प्रिसीडिङ्ग् टु स्थानीभूत. अकार अकारात् पूर्वः अकारः तकारात् परस्य अर्थात् मकारस्य विधौ कर्तव्ये. अतःपरस्मिन् पूर्वविधौ इत्यनेन स्थानीयभावः भवति इत्यर्थः तदा लभ्यते. तदा पूर्वविधौ इत्यस्य पूर्वस्मात् विधिः इति विग्रहः यदा स्वीक्रियते. पूर्वस्मात् परस्य विधौ कर्तव्ये अपि अनेन सूत्रेण अतःपरस्मिन् पूर्वविधौ इति सूत्रेण स्थानीयभावः भवति इत्यर्थः चलति. अत्र कथं स्थानीभूतात् अतः नाम अकारात् पूर्वः अकारः सकारात् परस्य नकारस्य विधिः नाम शुत्वं कर्तुम् इष्यते. अतः अस्मिन् विग्रहे स्वीक्रियते अत्रापि स्थानीयद्भावः भवति. स्थानीयद्भावेन अकारः यदि आनीयते तर्हि नकारस्य शुत्वं न भवति इति प्रथमं समाधानम्. अत एव वीक्षितैः उक्तम् इह पूर्वस्मादपि विधौ स्थानीयद्भावात् न शुत्वम्. सिङ्गल् वर्ड् इट् मीन्स् आल् दिस् इन् अतःपरस्मिन् पूर्वविधौ ई अक्सेप्ट् टु कैण्ड् आफ् विग्रह. बोत् आफ् देम् आर् करेक्ट्. वन् इस् पूर्वस्य विधिः पूर्वविधिः एण्ड् द कार्य टु बि डन् इस् फार् द पार्टिकल् विच् प्रिसीड् द स्थाने. देन् देर् इस् स्थानीयद्भाव. आल्सो द पार्टिकल् टु बि मोडिफैड् इस् next to the particle which preceded the sthani, then also we have sthanibhava. It is dhitiya sthaha. Asvindati akhe sikhate, sthanibhava bhavati, tena shukram yavarantum shakshate, it is prathamam samadhanam. But it is not a very convincing answer, because there is one general paribhasha which says, पूर्वत्रासिद्धे न स्थान्यते. इन् त्रिपादि वि जनरलि डु नाट् टेक् स्थानीयद्भावः. त्रिपाद्यां प्रायेण स्थानीयद्भावः न अङ्गीक्रियते. पूर्वत्रासिद्धे न स्थान्यते इति परिभाषा विद्यते. सो सिन्स् शुत्व लैसन् त्रिपादि इट् इस् 8-4-1 कथमत्र स्थानीयद्भावः इति प्रश्नः. इवन् दो यु डु आल् दिस् finally, when we are dealing with Tripadi, Sthanivadbhava is not a very convincing explanation. So what do we do? This is Krishna, which he says, Dhitiyam Samadhanam Prasthapyate, Kalyakala Pakshe Bahirangasya Allopakshe Asiddhatvat Va. We have Mula Pankhi, this is from the Kaumuli, as I have gotten to Kalakasin Christ. He gives a different second explanation. Karyakala pakshe bahirangasya allokasya siddhatvat. We've done this earlier and repeat it so let's see if it becomes clearer this time. व्याकरणशास्त्रे समयानां परिभाषाणां च प्रवृत्तौ पक्षद्वयं विद्यते यथोद्देशपक्षः कार्यकालपक्षः. There are two points of view of looking at something. It is called यथोद्देशपक्षः and कार्यकालपक्षः. What is यथोद्देशपक्षः? यत्र समयानां परिभाषाणां वा उपदेशः तत्रैव विधिसूत्राणां संस्कारः. Imagine that Sadhari, you see that the sutras are placed in different points. Okay, the Dharade is 111, the Dharati is 687, etc. Now, what exactly Vyakarana Sastra does is, it tries to refine Shabda, or it tries to derive Shabda from that Prakriti Pratyaya, it tries to join Prakriti Pratyaya, do some modifications and bring out the final form. This is a process. Okay, this process is called samskara of. Okay, shabda samskara is it. The process of creating, it's not, Vyakarana does not create shabda, but it is like nishpatti. They are trying to show how a shabda is derived from its prakriti and prakriti. Okay, this is called samskara. And this process is always done. The key sutras in this process are always the vidhi sutras. Vidhi sutra is a samskara created. It is only the Vidhi Sutra which can actually do some proper karya. Even though we have Samya, we have Paribhasha. Samya Sutrasya Prathakaya Sevati Karyam Nahati. Only Vridhiradai cannot do anything. It just names Akara, Ikara, Ukara as Vridhiradai. Vridhi. But what is the point? Why are you naming them? Yatra Vidhi Sutra, Vridhireti Iti Sutra, and Vridhaya Vridhihi Iti Sutra, Vridhi Prasmai Pradesh Iti Sutra, Vridhihi Iti Shruyate. Tatra akaraha ikaraha ukaraha bhavati iti. It is helping to derive the meaning of the Vidhi Sutra. But it cannot function independently. Neither samyas nor paribhashas can function independently. So they only serve as helpers in the process of shabda nishpatti. Now the question is, where does this process exactly take place? Does it take place where the Vidhi Sutras are told? Or does it take place where the Samya Sutras are told? Kutra Vidhi Sutranam Samskaraha. It is Prashne. Yathodesha Pakshe, Yatra Samya Uparishyate, Yatra Parishasha Uparishyate, Tatraiva Vidhi Sutranam Samskaraha. Arthata Prathamadhyaye, Prathamapade, Prathamataya, Yatra Vridhirade, it is Sutra Matki. That is a Samya Sutra, which is defining a Samya called Vridhi. So, whichever Vidhi Sutra Pāṇini is a Sriddhi. Yatra yatra Vidhi Sutra Pāṇini na Vridhihi iti padam upayujyate. Vridhireti iti va, Vridhaya Vridhihi iti va. Yatra Vridhihi yatra upayujyate. Tāni Vidhi Sutrāni atra agacchanti. If you imagine it, it is like they approach this Samya Sutra to get the definition. Wherever in a Sutra Pāṇini has used the word Vridhi, all those sutras will approach Vridhirade at its place, at its residence, which is 111. If you think of it as different house to clean numbers. So they all approach the Samya Sutra at its place and they take their definition and go back to their places to do whatever they have been mandated to do. That is the imagination of Yathodesha Paksha. So what happens in Yathodesha Paksha? Vipardhyam Samya Sutranam Parimhasha Sutranam cha Pravartihi na Bhavati. In case of Yathodesha Paksha, the Samya Sutras and Parimhasha Sutras will not operate in the Vipardhi. Why will they not operate is the question. When all the Vidhi Sutras are approaching Vridhiradai is in 111. Okay. So all sutras, wherever he is used, will approach this place. Now, Vridhirade being in Sattvada Saptadhyayi can see only those sutras which reside in Sattvada Saptadhyayi. Tripadhyam, Sattvada Saptadhyayi prati Tripadhi Asiddha iti uchyate. Since it is Asiddha, Vridhirade will not be able to see any sutra which are coming from the Tripadhi. So even if those sutras which are in the Tripadi approach Vriddhirage, they will not be able to get their definition. It will give out or serve its definition only to those sutras which it can see. It means Vriddhirage will define Vriddhi only for those sutras which exist in Kapalabhati, and it will not deal with any sutra which comes from Tripadi. Ataha, Yathodesha Pakshe, Tripadyam, this is the same thing, not just with Vriddhirage, I just took it as an example, any Samya or Paribhasha. Whatever Samya or Paribhasha we have, it will operate only in Kapalabhati and it will not operate in Tripadi. What Yathodesha Paksha means, or it ends up finally there. Now, an exactly opposite concept is called Karyakala Paksha. Karyakala Paksha katham bhavati iti cheta, yatra vidhisutranam upadeshaha, tatraya samyavaribhashaya ekavakyataya vidhisutra samskara. Here the process is exactly the opposite. So the samskara of shabda, the vidhisutra takes place, where the Vidhi Sutra has been told. Which means that Vidhi Sutra, which is Vriddhireti, will stay where it is. So the 6187, it will not move. Vidhi Sutra will stay wherever it is. Any Samya or Paribhasha which is needed to interpret Vriddhireti, will go to its place, will go to that particular place, which is 6187, and help it work. Okay, it will help the Vidhi Sutra to work, where the Samyas and Paribhashas are moving to the Vidhi Sutra's place. Okay. That is the concept of Karyakala Paksha. What happens in Karyakala Paksha? Tripadyam api Samyanam Paribhashanam se pravrtiti bhavati. How does it happen? When you say there is a Vidhi Sutra in Tripadi it wants to work, so all Samya Sutras and Paribhasha Sutras which are required for it are forcibly taken there. Okay. They have to go there. So they gain, Samya and Paribhasha itself gains an entry into the Tripadi. So once it goes into the Tripadi, it can work even in conjunction with sutras in the Tripadi. Therefore, in Karyakala Paksha, Samyas and Paribhashas can operate in Tripadi, whereas in Yathodesha Paksha, they cannot operate in the Tripadi. Please notice these are both just answers. If you ask me, will Samya Sutras operate in Tripadi or not, there is no single answer. You cannot say they will operate, you cannot say they will not operate. It depends on which paksha you are standing in. Both these concepts are accepted in Vyakarana. Okay, that is the first thing to remember. These, they are completely opposite, I agree, but they are both accepted. It is not that one is correct and the other is wrong. Both are accepted according to Lakshya. Ubhavati Paksha Vyakaran Sampradaya Anghi Kriyate. So where do you stand in each case? Okay, you have to depend, it is decided depending on the Prayoga. Lakshyana Rodhata Kudra Kaha Pakshaha Ashrayaniyaha Iti Nirniyate Bhashyakarana. So the Bhashyakara says, okay, in this Prayoga, to substantiate a particular Prayoga, we might have to rely on Yathodesha Paksha. To substantiate on some other Prayoga, we might have to rely on Karyakala Paksha. It is just like looking at something from two different opposite sides. Okay? So it will appear like which side you are standing on. To substantiate some Prayogas, you might have to rely on Yathodesha Paksha. And to substantiate some other Prayogas, you might have to rely on Karyakala Paksha. Since the aim of Vyakarana finally is to substantiate Prayogas, Ishta Prayoga Sadhutvam Sadhyetamena Vyakaranam. Vyakaranam is meant to support or substantiate Prayogas which have been made by Shishta. Ishta Prayogaha Sadhaniyaha. Sadhatvam Kayutvihe Ashtiyate Ipashyavashtiyate Pakshadvayam. So you can use either of these based on how the Prayoga is. Prayogani Rodha. To support the Prayoga you need some theoretical base. So you say, you can support some Prayogas using Yathodesha Paksha and you can support some others using Karyakala Paksha. Okay. Now, coming to our current problem. We have, to remember where we are, Triyashtanaha Ityasti Allopaha Srutaha Allope Srute Sutvam Nivaraniyam Katham Nivaraniyam Iti Prashnaha Samyadbhavaha Na Bhavati Bhavati Iti Ekam Samadhanam तत्र अरुचिः इट् इस् नाट् अ प्रिफर्ड् एक्स्प्लेनेशन् बिकास् पूर्वप्राकृते सान्निभावः नास्ति इति साधारणनियमः. सो नौ वी आर् ट्रैङ्ग् टु यूस् अनदर् परिभाषा हियर् विच् इस् असिद्धं बहिरङ्गम् अन्तरङ्गे. असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषाम् उपयुज्य सुखं निवारयितुं प्रयत्नः क्रियते. नौ कः पक्षः आश्रयणीयः, यथोद्देशपक्षः आश्रयणीयो वा कार्यकालपक्षः आश्रयणीयो वा इति प्रश्नः. कः भेदः, यथोद्देशपक्षे त्रिपाद्यां संज्ञापरिभाषाणां प्रवृत्तिः नास्ति, कार्यकालपक्षे त्रिपाद्यां संज्ञापरिभाषाणां प्रवृत्तिः अस्ति. इदानीम् असिद्धं बहिरङ्गम् अन्तरङ्गे इति परिभाषा अस्ति, साक्षीपरिभाषा. षष्ठाध्याये बाहवूढिति सूत्रेण ज्ञापिता परिभाषा असिद्धं बहिरङ्गम् अन्तरङ्गे. यदि यथोद्देशपक्षः आश्रीयते तर्हि त्रिपादीस्थस्य श्रुत्वस्य विषये इयं परिभाषा न प्रवर्तते. इफ् वि टेक् वि स्टाण्ड् वित् यथोद्देशपक्ष श्रुत्व विल् नाट् अप्लै इन् केस् सारी अन्तरङ्गपरिभाषा विल् नाट् अप्लै इन् केस् आफ़् श्रुत्व. We cannot use the paribhasha at all if we say with yathodesha paksha. But we need to use this paribhasha to support the prayoga priyashmaha. Atah kim kriyate, karyakala pakshaha ashriyate. Karyakala pakshe tripadyam api samyanam paribhashanam cha pravartihi bhavati. Atah karyakala pakshaha yade ashriyate, tarhi asiddham bahiranga mantarange eki paribhasham ashriyatum shaktumaha. We can use असिद्ध परिभाषा असिद्धं बहिरङ्गमन्तरङ्गे इफ् वि आर् आन् द सैड् आफ् कार्यकालपरिभाषा कार्यकालपक्ष निपेक्षितस्य कार्यकालपक्षे वेन् वि टेक् कार्यकालपक्ष बहिरङ्गस्य अल्लोभस्य असिद्धत्वा कथं तत्र परिभाषायाः प्रवृत्तिः. अन्तर्भूतनिमित्तकत्वा श्रुत्वम् अन्तरङ्गम्, बहिर्भूतनिमित्तकत्वात् अल्लोपः बहिरङ्गः. कम्पेर् अल्लोप अल्लोपो नः अण्ड् श्रुनाष्टुः विचस् दीस् इस् अन्तरङ्ग अण्ड् विचस् दीस् इस् बहिरङ्ग. द निमित्त पश्रुत्व इस् तकार तकार अण्ड् नकार नकारस्य तकारणे श्रुत्वं. द निमित्त फार् अल्लोप इस् इषत् प्रत्यय इट् स्टेस् औट् सैड् यु हाव् तकार अण्ड् नकार विदिन् द प्रकृति द प्रत्यय इस् औट् सैड् बहिर्भूतनिमित्त. बहिर्भूतनिमित्तकत्वात् अल्लोपः बहिरङ्गः. अल्लोप इस् बहिरङ्ग, श्रुत्व इस् अन्तरङ्ग. असिद्धं बहिरङ्गम् अन्तरङ्गे किमुच्यते, अन्तरङ्गे कार्ये कर्तव्ये बहिरङ्गम् असिद्धम्. एन् अन्तरङ्गकार्य बहिरङ्ग उद्ये असिद्ध. अत्र अन्तरङ्गे श्रुत्वे कर्तव्ये एन् ट्रेण्टु श्रुत्व विदम् अन्तरङ्गकार्य बहिरङ्गः अल्लोपः असिद्धः. अल्लोप बुद्धि असिद्ध विच् मीन्स् श्रुत्व सूत्र केनाट् सी अल्लोप अकार्डिङ्ग् टु श्रुत्व अकार डिसैड् इट् विल् नाट् सी दट् अकार हस् बिन् डिलीटेड् इट् मीन्स् द अकार इस् स्टिल् देर् इफ् अकार इस् देर् श्रुत्व केनाट् आपरेट् बिकास् द नकार एण्ड् तकार सेपरेटेड् बै द अकार. अल्लोपस्य असिद्धत्वात् श्रुत्वं न भवति इति उत्तरम्. कार्यकालपक्षे बहिरङ्गस्य अल्लोपस्य असिद्धत्वात् वा. So this is the second explanation. Priyasthanaha ityatra shrutva nivaranam katham ityatra prathamam samadhanam asit atasparasmin purvavidhau ityatra purvasmadapi parasya karyakartavya sthanyadbhavah bhavati iti vigraham ashritya akara purva takaraha asmat parasya nakarasya dhokartavya sthanyadbhavah bhavati अल्लोपस्य स्थानेद्भावे श्रुत्वं न भवति इति प्रथमं समाधानम्. कार्यकालपक्षाश्रयणे श्रुत्वम् अन्तरङ्गम्, अल्लोपः बहिरङ्गः. बहिरङ्गस्य अल्लोपस्य असिद्धत्वात् श्रुत्वं न भवति इति द्वितीयं समाधानम्. फस्ट् टु एक्स्प्लेनेशन् प्लीस् द सेकेण्ड् वन् इस् मोर् प्रिफर्ड्
So they say cannot operate because Shutva is Asita. Esodesha, in Esodesha Paksha, what happens is the Parihasha Asitam Vahiranga Mantarange is planned in Saparu Saptadhyayi. Okay. We need that Parihasha to decide which is Antaranga and which is Vahiranga. Which means, if there are two sutras which are approaching Asitam Vahiranga Mantarange, it will give a decision on which is Antaranga and which is Bahiranga. Okay. If two sutras in Sakara Saptadhyayi approach Asiddham Bahiranga Mantarange, it will be able to decide which is Antaranga and which is Bahiranga. But if one sutra is approaching it from Sakara Saptadhyayi and another sutra from Tripadi, and the Parihasha itself cannot see the sutra which is there from Tripadi. Therefore, it cannot decide which is Antaranga and which is Bahiranga. Which means the Parihasha will not operate. Very simply put, in Yathodesha Paksha, Samya or Parihasha will not operate in case of Tripadi Sutra. Since Shutva is in Tripadi, if we take Yathodesha Paksha, we will not be able to decide if Shutva is Antaranga or Alloka is Bahiranga. Therefore, we will not be able to say Shutva will not happen because it is Antaranga. Yes, always Asetamangam Bahiranga Mantarange is considered to be a part of Vahut. So, position is this defined by that, wherever Vahut. Yeah, I don't think I know. Vahut is somewhere. Yes. If we use Karakara Paksha, this Asiddham, the Parihasha itself will approach Shunashtuhu. It will enter Tripadi and it will go near Shunashtuhu. From there it can decide whether Shunashtuhu is Antaranga or Alloka is Bahiranga. So then it will decide that Shutva is Antaranga and Alloka is Bahiranga. Then we use the Parihasha to say Antaranga Karya Karta Ke Bahiranga Matuddhya. So if you notice, if you go back to Rajan Shabda, that is where we took the whole Prakarana again, it's exactly the opposite. Right? What we did in Rajan Shabda is, we are trying to prove that Shutva will happen. Just like we are trying to prove here that Shutva will not occur. And in whether it is Shutva or Shutva does not make any difference currently. Because they are 8, 4, 40 and 41. Okay, so it makes no difference whether it is Shutva or Shutva. In Rajan, once we do Alloka, we have to prove that Shutva will happen. Whereas in Kriyashtanaha, once we do Alloka, we have to prove that Shutva will not happen. It's the completely opposite. The case is exactly the same. And then you cannot change any scenario. In both cases, it is Alloka is happening. And then in one case, you have to say Shutva will happen. And the other, you have to say Shutva will not happen. From the outset, it appears random. It's completely opposite and there is no explanation which can accommodate both. There is no explanation which can say why Shutva should happen in Ragyaha and Shutva should not happen in Priyashtanaha. They are both exactly similar. There is no point of difference. That is why you have to look at it from something which seems very, well, I mean, at the outset when you read it for the first time, if you find it hard to be convinced by Yathodesha Paksha and Karyakala Paksha. Because they are both exactly the opposite. But we need it in Vyakarana precisely because of this. Because Prayoga does not follow Vyakarana. It was not that Panini first fixed his rules and then Prayogas were made. If that were the case, it would have been either way. Either there should have been Shutva and Shutva or both of them should have been prevented. But unfortunately, the Prayogas came first. And you have such opposing Prayogas. That is why we use such opposing theories to explain those Prayogas. In Rajyaha, what we do is, the argument we put forth is exactly the opposite of what we say here. In both cases, there are two explanations being offered here. In first case, we say there is Sthanivadbhava of Alloka and that is why Shutva is prevented. There we say there is no Sthanivadbhava because of Purvatra Siddhena Sthanivata and therefore there is Shutva. It's, the same thing we are saying opposite. So that is one thing. And similarly, when you come to the second thing, we say there we use Yathodesha Paksha so that the Parihasha will not operate and Shudra can occur. Here we say it is Karakala Paksha. So Bahiranga, there is Antarangam Bahiranga Bhava and Shudra will not operate. Okay? It's completely the opposite. But still Prayoga Vashat Angikaraniyam. Prayoga Sharanaha Vyakaranaha. Ultimately the Prayogas defeat the theory, whatever it is. So now if you go back to that class, the class on Rajan Shabda, and if you listen to this again, you should be able to understand. It is opposite, but this is the logic which we have to use, because both Prayogas exist. It is all, finally everything in Vyakarana is governed by Prayoga. That is the ultimate point. If you look at it that way, you can do some adjustments in theory to accommodate it. If you are looking at it from a completely theoretical point of view, things seem absurd sometimes. You can't help it. So, the sutra, that is why they say the people, the Maharshis who created the Shastra, they were all Lakshyaita Chakshushkaha. The two kinds of people, Lakshyaita Chakshushkaha and Lakshyaita Chakshushkaha. The Maharshis who created the Shastra, they had only one thing in their mind, which is Lakshya. Lakshya is Prayoga. Their only aim was to substantiate Prayoga. They did not care if their sutras were sometimes seemed wrong or if they were opposing any interest. They did not care really what the Shastra is telling. Their ultimate aim was to substantiate Prayoga. What happened later, or what happens with people like us, is we don't have Prayoga Jnana. We don't know that many Prayoga. We depend on sutra to go to Prayoga. We don't know what Priyashtan, the Vivachana of Priyashtan Shabda. We do not know what the form of Priyashtan Shabda in Dvitiya Bahuvachana. So we say we apply whatever sutras we know, we try to arrive at. We are called Lakshanaita Chakshushkaha, Lakshanam Nama Shastram. We try to go it the opposite way. We go from a Shastra and find out what is the Prayoga. But how the Maharshis operated is exactly the opposite. They looked at the Prayoga and they made adjustments in Shastra to deal with Prayoga. So that is where these sorts of what might seem inconsistencies to us seem perfectly plausible to them. Therefore our aim should also be to move our viewpoint from looking at it from the Shastra point to the Prayoga viewpoint. Only when you look at it from Prayoga can you understand what is the logic behind it. If you have any questions, you can ask. Just now, I think you should go back to that part on Rajan and compare Priyashtan. You will be able to understand Yathodesha and Karyakala Paksha very much better than what it was the first time, I hope. If you have any questions, you can ask. Just please make please email in.
ూత్రకారణపత్రయత్రయమస్తేశ్వరి వైయాకరణసిద్ధాంతకౌమీ